सर्वेभ्यो नमस्कारः।
प्रज्ञापुरुषसमासप्रकरणे सप्तमः पाठः।
येनाक्षरसमां नाणिमधिगमोमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य चतुर्थीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।
तत्पुरुष समास प्रकरणे द्वितीयादि सप्तम्यन्ताः समासाः अधीताः, तथैव समानाधिकारिण समासः आरब्धः। स्टार्टेड् विथ् समानाधिकरण समासः, सो वर्ड्स् इन् द सेम् विभक्ति कम्बैन्ड् टुगेदर्। विदिन् दट् वि स्टडीड् वन् सब् टैप्, विच् इस् द द्विगु। द्विगु समासोऽपि अधीतः। दिक्सङ्ख्ये संज्ञायाम् इत्यनेन संज्ञायां दिक्सङ्ख्ये समस्यते, ततः तथितार्थोत्तरपदसमाहारे च इत्यनेन तथितार्थे विषये उत्तरपदे परतः समाहारे च वाच्ये दिक्सङ्ख्ये समस्येते इति उक्तम्। तत्र यत्र दिक्वाचकं पदं पूर्वपदं भवति, क्षम्यताम्, यत्र सङ्ख्यावाचकं पदं पूर्वपदं भवति, अर्थात् सङ्ख्यावाचकपदस्य तथितार्थे उत्तरपदे समाहारे वा यत्र समासः, तत्र द्विगुः इति संज्ञा भवति तस्य, संख्यापूर्वद्विगुः इति सूत्रेण। तत्सर्वं दृष्टम्। इदानीं समानाधिकरणसमासः अनुवर्त्यते। सो वि कण्टिन्यू वित् समानाधिकरणसमासः। कुत्सितानि कुत्सनैः इति सूत्रम् पदद्वयमस्ति। कुत्स्यमानानि कुत्सनैः सह प्राग्वत् इति सूत्रार्थः। कुत्सनं नाम निन्दा, कुत्सनं, क्षेपः, निन्दा, आल् आफ् देम् आर् पर्याय, वेर् इस् कण्टेम्प्ट् आफ् सम्बडी बीङ्ग् इण्डिकेटेड्। सो कुत्स्यमानानि इस् द पर्सन् आर् द थिङ्ग् दट् इस् बीङ्ग् कण्डेम्ड्। कुत्सनम् इस् द रीसन् आर् वाट् इस् इट् दट् इस् बीङ्ग् कण्डेम्ड्, विच् इस् द क्वालिटि आर् वाट् इस् द फीचर् विच् इस् बीङ्ग् कण्डेम्ड्। सो कुत्स्यमानानि कुत्सनैः सह प्राग्वत्, प्राग्वत् नाम समानाधिकरणेन समस्यन्ते, स तत्पुरुषः इत्यर्थः। वैयाकरणखसूचिः इति प्रसिद्धम् उदाहरणम्। वैयाकरणः खसूचिः इति विग्रहः। इन् कर्मधारया देर् आर् टू वेस् आफ् रैटिङ्ग् विग्रह समानाधिकरणं, किन् इदर् रैट् इट् अस् नीलः मेघः नीलमेघः, आर् नीलश्चासौ मेघश्च नीलमेघः। देर् आर् बोत् वेस् आर् पाप्युलर्, बोत् आफ् देम् आर् द सेम्, दे मीन् द सेम्। चकार इस् जस्ट् इट् डस् नाट् रियलि केरि एनि मीनिङ्ग् हियर्। इन् द्वन्द्व द चकार केरिस् द मीनिङ्ग् आफ् समुच्चय, रामश्च लक्ष्मणश्च, द समुच्चय विच् इस् बीङ्ग् शोन्। बट् वेन् यू यूस् द चकार इन् कर्मधारय, इट् इस् नाट् फार् अ समुच्चय, इट् इस् जस्ट् नीलश्च असौ मेघश्च, द सेम् थिङ्ग् इस् बोत् इण्डिकेटेड् बै बोत् द वर्ड्स् इन् कर्मधार, दट् इस् बोत् द पूर्वपद एण्ड् उत्तरपद पायिण्ट् टु द सेम् पदार्थ। सो यु केन् इदर् रैट् इट् अस् नीलः मेघः आर् नीलश्चासौ मेघश्च, and that holds everywhere. You can write it as vayyakaranashchasa khasuchishcha or vayyakaranaha khasuchihi. Both vigrahas are correct and they mean the same. There is no difference at all. Vayyakaranaha khasuchihi iti padam. Kaha arthaha? Kham nama akashaha. Kha suchihi nama akasham suchayati. Kaha prasangaha iti vedhe? Yaha prakriyam prushtaha san प्रश्नं विस्मारयितुम् आकाशं दर्शयति पश्यति वा, वैयाकरण व्याकरणम् अधीते वेत्ति वा इति वैयाकरणः। हि हु स्टडीस् व्याकरण, हि हु नोस् व्याकरण, एण्ड् द मेन् व्याकरण इस् व्याक्रियन्ते पदानि, दट् इस् द डिरेवेशन् आफ् वर्ड्स्, द पदनिष्पत्ति इस् द मेन् पर्पस् आफ् व्याकरण। सो प्रक्रिया इस् द फौण्डेशन् आफ् व्याकरण। इफ् एनिबडि हेस् टु काल् हिम्सेल्फ् अ वैयाकरण, हि शुड् बि स्ट्राङ्ग् इन् प्रक्रिया, हि शुड् नो द प्रक्रिया आफ् वर्ड्स्। वेनेवर् दिस् पर्सन् दिस् वैयाकरण, वेनेवर् सम्बडि आस्क्स् हिम् अबौट् एनी प्रक्रिया, हि डस् नाट् नो द आन्सर्, सो हि ट्रैस् टु क्रियेट् अ डैवर्शन् बै इदर् शोयिङ्ग् दिस् टै आर् दट् इस् टाकिङ्ग् अबौट् सम्थिङ्ग् इर्रेलेवेण्ट्, आर् हि डस् नाट् नो द आन्सर् सो हि लुक्स् अप् एट् द स्कै इत्यर्थे खसूचिः इति। अत्र वैयाकरणः प्रक्रियाविस्मरणात् निन्द्यः, So kutsyamanaha vayyakaranaha. It is the vayyakarana who is being condemned because he does not, he has forgotten prakriya. Khasuchanam ninda hetuho. And the kutsana is khasuchi. He is, that is the word which indicates contempt. Khasuchi. So kutsyamanani nama kutsyamanam atra kutsyamanaha vayyakaranaha. Kutsanam nama khasuchitvam eva kutsanam. Ataha khasuchi padena saha samanadhikaranena samasyate. Satatpurushah vayyakarana khasuchihi. Evameva mimamsaka durdurutah. Mimamsakaha durdurutah. Mimamsaka durdurutah. Yaha mimamsa madhitya anyatha jananaha durakshepam karoti. So durduruta is a word which is meant for a person who simply raises objections which do not have any base or do not have or not based on sound logic. And that is durakshepa. So yaha mimamsa madhitya anyatha jananaha, that is not understanding it properly or interpreting it the wrong way, durakshepam karoti. He raises objections which are not valid. Saha eva mucchyate. Saha mimamsaka durdurutah. So there are some people who are very, in a fighting spirit in all such goshthis. When you go to Shastra Goshthi, there are people who, some people who try to show off their panditya by just raising objection. So this is one such word which condemns such people. Mimamsaka durdurutah. Vayyakarana kasuchihi iti udaharanadvayam bahu prasiddham. Visheshyatya purvanibhantartham sutram. So why is this sutra needed? Because khasuchi is an adjective to vayyakarana. Right? He is vayyakarana, khasuchihi iti visheshanam. Kimartham sutram. The main sutra of karmadhara samasa is visheshanam visheshyena bahulam. Visheshanam visheshyena samasyate. Atrapi khasuchi iti visheshanam vayyakarana iti visheshyam samasaha bhavatyeva. Kimartham idam sutram. Visheshyatya purvanibhantartham. Vayakarana is the visheshya, and here in this sutra, when we do samasa by this sutra, it gets purva nipata because kutsitani iti prathama vibhaktavasti, kutsanaihi iti tiyaya. So kutsitani satyam, kutsita shabdasya prathama nirdishtatvatu upasarjanatvamasti, upasarjanam purva mityanena visheshyasya atra purva nipata drishyate. Yadi visheshanam visheshena bhulam ityanena samasa hasyat, tarhi visheshanasya purva nipata hasyat. Should have been khasuchi vayyakarana, which is not the desired form. Atayeva idam sutram. As I said, most sutras in Karmadharaya are meant to regulate purvanipatam. Purvanipata niyamartham. Otherwise, all samasas can be done by visheshanam visheshena bhulam. Purvanipatasya niyamartham eva bhuni sutrani santi. Agrimam sutram, agrimam prishtham. Papanake kutsitaihi. Papa anake kutsitaihi. That's the Pura Sutra Pavadaha. Pura Sutra ki muktam kutsitani kutsanaihi. Kutsyamanani kutsanaihi saha samasyante iti. Papa anaka iti kutsanani. They are words which indicate condemnation. Nindavachakani padani. So, if we do samasa by the previous sutra, papa or anaka will be later. Whatever is being condemned would be purvapada, would get purvanipata, and papa anaka would be the uttarapada. So as an exception to that, they say papa anake kutsitaihi. Papa shabdaha anaka shabdasya kutsitaihi. Nama yat kutsyamanam, kutsyamanaha yaha padarthaha tena tadvachakena padehanasaha samasyante. Papa napitaha. Papaschasa napitascha iti vigdaha. Papaha napitaha ityatra, papaha iti kutsanam, napitaha iti kutsyamanaha. Purva sutrena yadi samaskriyate, tadhi napita papaha iti syat. So tadvaranartham punaha papanake iti atra prathama nirdishtam. So everywhere you should look for the word which is in prathama vibhakti. Atra papanake iti prathama dvivachanam. Papanake iti asya prathama nirdishtatvad. Upasarjanatvam, ataha papa shabdasya, anaka shabdasya cha, purva nipataha, jishyate. Papam asya asti iti papaha. Papaha napitaha itya asti kaha arthaha. Papaha nama papavan, he who has sinful. Napita who is papa, अतः नापितः कुत्स्यमानः पापः इति निन्दा सूचकं पदम्। अणककुलालः, अणकश्चासौ कुलालश्च। अणकशब्दस्य कुरूपी इत्यर्थः। हि हू इस् अग्ली टु लुक् एट्। अणककुलालः, कुलाल इस् अ पॉटर, नापिता इस् अ बार्बर, पापनापितः अणककुलालः इति उदाहरणम्। कैन बी एनीथिंग, व्हेनेवर पाप और अणक इज अ विशेषण फॉर एनीथिंग, पापाणके कुत्सितैः इत्यनेन समासः भवति। अग्रिमं सूत्रमस्ति उपमानानि सामान्यवचनैः। सामान्यः नाम उपमान उपमेय साधारण शब्दः। इन एन उपमा, दिस इज व्हेनेवर देयर इज अ कंपैरिजन, उपमायाः चत्वारि अंगानि भवन्ति। देयर आर फोर पार्ट्स टू एनी उपमा। उपमा इज एन एनी कंपैरिजन। उपमेयः, उपमानम्, उपमावाचकशब्दः तथैव साधारणधर्मः इति चत्वारि अंगानि भवन्ति। उपमेयः इज दैट व्हिच इज बीइंग डिस्क्राइब्ड। यू आर सेटिंग आउट, से यू आर वांट टू डिस्क्राइब अ फेस, फेस ऑफ समबडी, तद् उपमेयः, सः उपमेयः। उपमानम्, येन सह उपमा क्रियते। दट विथ विच युअर डिजायर्ड थिंग इज कंपेर्ड। यू आर ट्राइंग टू डिस्क्राइब अ फेस एंड यू आर कंपेरिंग इट टू से चंद्र, चंद्र उपमानम्। उपमा वाचक शब्द, दट इज अ वर्ड विच इंडिकेट्स उपमा। ऐसे यू से मुखम चंद्र इव अस्ति इत्युक्ते इव इति उपमा वाचक शब्द। तथैव साधारण धर्म, देयर शुड बी सम common feature which enables you to compare. Say the mukham is say, beautiful, or it is bright, or it is very pleasing. So kimapi sadharana dharmaha bhavati upamayasya upamanasya. Sayeva samanyaha iti uchyate. Samanyaha upamana upameya sadharana shabdaha. That which is common between upamana and upameya is called samanya. Tadvajakaha shabdaha सामान्य वचनानि। सो सामान्य वचन मीन्स अ वर्ड विच इंडिकेट्स साधारण धर्म, एंड उपमाना इज द थिंग टू विच यू आर कंपेयरिंग योर विषय। घन इव श्यामः, घनश्यामः। घनः नाम मेघः, अत्र मेघः उपमानम्। से कृष्ण, कृष्ण इज बीइंग कंपेयर्ड टू अ क्लाउड, सो क्लाउड इज द उपमान। श्याम इज ब्लैक, ब्लैकनेस इज द कॉमन क्वालिटी बिटवीन क्लाउड एंड कृष्ण विच एनेबल्स कंपैरिजन। घन उपमानम्, श्याम सामान्य वचनम्। सो घन इव श्याम इत्यत्र घनश्याम इति समासः उपमानानि सामान्य वचनैः इति सूत्रेण। इदमेव उपमान पूर्वपद कर्मधारयः। इन कर्मधारय वी जनरली ट्रेस सेवरल सब टाइप्स। There is visheshana purvapada, visheshana uttarapada, upamana purvapada, upamana uttarapada, etc. So this is the sutra which gives upamana purvapada. Since upamana is prathama nirdishta, tasya upasarjanam purvam ityanena purvanikataha bhavati. Iha purvapadam tatsadrishe lakshanikam iti sucheyitum laukika vigrahe iva shabdaha prayujyate. Laukika vigrahe ghanaha iva shyamaha ityasti. किन्तु इव शब्दः वस्तुतः समासे न अन्तर्भवति। देयर इज नो इव विच इज इन्क्लूडेड इन द समास। देयर इज ओनली घनः श्यामः, घनश्यामः इत्येव वस्तुतः विग्रहः। द एक्चुअल विग्रह शुड हैव बीन जस्ट घनः श्यामः। इवन इन द अशास्त्रीय विग्रह वी से घन सु श्याम सु। बट you should notice that there is a difference between neela megha and ghanashyama. What is happening in neelaha meghaha neela meghaha or neelam kamalam neela kamalam, whatever, kamalam refers to a padartha, to the flower. Neelaha also refers to the same padartha. Okay, neelaha kaha itikte se meghaha, or kamalam kidrisham itikte neelam. Both neela and kamala refer to the same padartha. That is why it is called samanadhikarana. We will see the definition of samanadhikarana later. When both the words refer to the same person. Example, if you have sundaraha ramaha. Sundaraha ityukte tena vivakshitaha padarthaha सः पुरुषः तथैव रामः इत्यनेन विवक्षितः पदार्थः अपि स एव पुरुषः. दट् इस् वै वि काल् इट् दिस् इस् अ विशेषण एण्ड् विशेष्य एण्ड् देर् इस् समानाधिकरण्य समानाधिकरण्य. सो द सेम् इस् इन् द केस् आफ् नीलं मेघः. घनः श्यामः. श्यामः कः? सम्बडी हू इस् ब्लाक्. से कृष्णः. कृष्ण इस् श्याम एण्ड् घन इस् अ क्लौड्. So there are two different padarthas which are being indicated. In that case, there will not be this samasa. So that is why he says, Purva padam tat sadrishe lakshanikam. Lakshana, there are two, three vrittis actually. If you have just studied it for your other papers in MA, any artha or shabda can have three different kinds of meanings. There is Shakyartha, the actual meaning of the word, which is called Shakyartha. But there are many cases where the Shakyartha will not hold good, and that is why we derive other meanings, which is either the Lakshyartha or the Vyangyartha. We call it Shakti, Lakshana and Vyanjana. Okay. Say for example, when you say Balakaha Simhaha, Simhaha, Simhapadasya, Vastudaha Artha Kaha, it refers to some animal, a four-legged animal with, say, a mane, with a tail, whatever. There are some lakshanas for a simha, so it refers to a particular animal. Saha shakyarthaha simhapadasya. Kintu yada balakaha simhaha iti uchyate, tada tattva shakyarthaha naski. It does not mean that that boy is a four-legged animal with a mane and a tail, etc. It means simha sadrishaha. He is similar to a simha in something, which is a quality like courage or valor. तत्र सिंहपदस्य शक्यार्थः न स्वीक्रियते, किन्तु लक्ष्यार्थः. कः लक्ष्यार्थः? सिंहसदृशः. बालकः सिंहः इत्युक्ते बालकः सिंहसदृशः इत्यर्थः. सिंहसदृशः इति लक्षणया लभ्यते. द सेम् इस् द केस् हियर्. व्हेन् यू आर् सेयिङ्ग् हि इस् घनः श्यामः, घनसदृशः श्यामः इत्यर्थः. हि इस् ब्लाक् एण्ड् हि इस् लैक् द क्लौड्. ब्लाक् लैक् द क्लौड् इति अर्थः. घनशब्दस्य पूर्वपदं नाम घनपदं. तत्सदृशे घनसदृशे लाक्षणिकं. लक्षणया घनः इत्यस्यैव घनसदृशः इत्यर्थः अस्ति. अत एव तत् सूचयितुं लौकिकविग्रहे इव शब्दः प्रयुज्यते. सादृश्यं विवक्षितम् अत्र इति वक्तुं घनः इव श्यामः इति लौकिकविग्रहे उपयुज्यते. किन्तु समासे इव पदः न प्रविशति, इव पदं न प्रविशति. The word Iva is not included in the samasa. It is just in the vigraha to indicate sadrishya, that the ghana is an upamana. Okay. Ghana Iva Shyamaha, Ghana Shyamaha. Purva Nipata Niyamartham Sutram. So again the sutra is to regulate Purva Nipata. It is to tell that ghana should always be Purvapada and never Shyama. So, अग्रिमं सूत्रमस्ति उपमितं व्याघ्रादिभिः सामान्याप्रयोगे. द विशेष्य, ओके, विच् इस् द विशेष्य इस् द क्वेश्चन्. विशेष्य इस् नाट् अ fixed thing. Okay, that is first thing to know. Visheshana and Vishesha are not fixed things. I mean, the major Vishesha here would be the Upameya. If you are saying Krishnaha, Ghanaha, Eva Shyamaha, the Upameya would be the Vishesha. But when you are saying Ghanaha, Shyamaha, Shyamaha is the Visheshana, blackness. And Ghana is, as we discussed, is Lakshanika for Ghana Sadrisha. So whoever is the Ghana Sadrisha would be the Visheshya. Shyamaha iti Visheshanam, Ghanaha iti Visheshyam Bhavitam Arhat. Ataha Visheshyasya Puranipadartham Sutram. Upamana is the Visheshya and Samanyamasaka is the Visheshana. Actually, as we will see later, Visheshana and Visheshya are not always fixed. सर्वदा इदमेव विशेषणम् इदमेव विशेष्यम् इति वक्तुं न शक्यते. बहुत्र, इन् मेनी केसेस्, ईदर् आफ् देम् केन् बि यूस्ड् एस् अ विशेषण एण्ड् ईदर् आफ् then can be used as a vishesha. This is a speciality. Because what is a visheshana? Visheshanam nama bhedakam. That which separates a thing from others is called a visheshana. So you are, when you are saying neelam kamalam, there are different lotuses. That is, there is a red lotus, there is a white lotus, there is a blue lotus, probably blue or whatever. So when there are many such things, you are separating this particular neela, this particular kamala from the other kamalas by giving a visheshana called, that is neela. So you are separating that neela kamala from the rest of kamalas. That is why we call neela as the visheshana. It is the bhedaka. It is that which separates your thing from other things of the same type. Okay. But what happens when, say there are a lot of neela padarthas. Say there is a neela kamala, there is a neela megha, there is a neela kesha, whatever. There are many different padarthas which are neela, and you want to separate the kamala out of it. Okay. So in that is the case, kamala itself could be the bhedaka. That could be the visheshana, because there are many things which are neela. Neelam kim iti prashne, kamalam ityanena neela padarthebhyah, bahubhyah neela padarthebhyah kamalam vidyate. Ataha tatra kamalatvam bhedakam. So kamala can be treated as a visheshana also. So there, visheshana visheshya bhava itself is not very simple. You cannot say neela is always the visheshana and kamala is always the visheshya. Okay. So we'll see that later. सामान्यवाचक शब्दः अस्ति तेन सामान्य धर्मः सूच्यते वा न उपमेयः उपमेय एव सूच्यते सी विद फाइनली यू एंड अप विद द उपमेय इटसेल्फ घनः इत्यनेनापि घनसदृशः कः उपमेयः कृष्ण एव सूच्यते श्यामः इत्यनेनापि स एव सूच्यते उपमेय एव सूच्यते फाइनली बोथ पदास Both the Purvapada and Uttarapada end up indicating the Upameya. That is the speciality of Karmadharaya. Even in, say, when you say Neelaha Meghaha, both of them indicate Megha itself. Neelaha Meghaha ityukte, Megha Padena, Megha Padarthaha Uchyate. Neela Padena Api, Megha Padartha Eva Uchyate. Neelaha Kaha, Megha Eva. So that is always wherever you have Samanati Karan. Yeah? That is the case. अत्रापि घनः इत्यनेन किम् उच्यते घनः नोच्यते घनसदृशः कः कृष्णः इति स्वीकुर्मश्चेत् कृष्णः एव उच्यते श्यामपदेनापि श्यामः कः इत्युक्ते श्यामः कृष्णः तेनापि उपमेय एव उच्यते बोथ ऑफ देम इंडिकेट फाइनली दे इंडिकेट द उपमेय पदार्थ बट सामान्य वचन इज दट विच इंडिकेट्स द सामान्य धर्म एंड देन एंड्स अप इन इंडिकेटिंग द उपमेय सामान्यम् उक्त्वा अन्ते उपमेय पदं वदति अत एव सामान्य वचनम् इति उच्यते इट इज नॉट जस्ट द धर्म धर्मी इज इंडिकेटेड इट इज श्यामः इत्युक्ते कृष्ण धर्मः नोच्यते यः कृष्णः वस्तु एव उच्यते देयर यू शुड डिफरेंशिएट बिटवीन देयर इज द गुण एंड देयर इज द द्रव्य कृष्णत्व और द श्यामत्व द ब्लैकनेस इज अ गुण एंड देयर इज अ द्रव्य इट इज ऑलवेज एसोसिएटेड विद द द्रव्य विच हैज द ब्लैकनेस तो श्यामः इत्यनेन द्रव्यमेव उच्यते तद्द्रव्यम् उपमेय एव किन्तु तत्र श्यामत्वं नाम गुणम् उच्यते सामान्य धर्मं उक्त्वा उपमेयं सूचयते अतः एव सामान्य वचनम् इति उच्यते अत्र वर्णः सामान्य धर्मः सत्यम् The common dharma between ghana and whatever is the upameya is varna. Kintu shyamaha iti padena atra shyamala varnaha nochyate. Shyamala varnavan kashchana purushaha athava kashchana padarthaha uchyate. So, when you are talking about black color, it is a dharma, which is a guna. But when you are talking about a black thing, Okay, so there is blackness indicated by the word, but it is not referring to just blackness. It is referring to a dravya, which is the ashraya for that blackness. Shyamaha ityukte shyama varna yuktaha kashchana padarthaha ityeva arthaha. Kintu tena padena samanyam uktva upameyam vadati ityato eva samanya vachanam. Similarly, when you call guna vachana, it does not indicate just the guna. It indicates a dravya which has that guna. That is why you have that vachana shabda, that is aware. If you look at the nishpatti of that word, that is how they derive it. They say samanyam uktva anyat kimapi vadanti. It does not end at telling the sadharana dharma. Sadharana dharmam suchayitva agre upameye paryavasannam bhavati. Athava dravya paryavasannam bhavati. Is that clear? Any more questions? Agrimam sutram upamitam vyakhyadibhihi samanya aprayoge. Trini padani santi upamitam vyakhyadibhihi samanya aprayoge. Upameyam upamitam nama upameyam devartha upameyam vyakhyadibhihi saha pragvate. Vyakhyadihi ganaha. This is a class of words starting with vyakhya. तेन सह प्रागवत नाम समस्यते सतत्पुरुषः इत्यर्थः सामान्य अप्रयोगे तस्ति तदनन्तरं पश्यामः साधारण धर्मस्य अप्रयोगे सति. सो दिस इज अ समास ऑफ उपमानवाचक विद द उपमेयवाचक पद. ओके, देयर यू हैड उपमान एंड द साधारण धर्म. हियर देयर इज उपमेय एंड उपमान. Visheshyate purva nipatartham sutram. So whenever you have a upameya and upamana, upameya is the visheshya. Tasya purva nipatam anena bhavati. Purva nipataha bhavati. Kimartham upamitam iti prathamanirdishtam. Prathamanirdishtatvat purva nipataha bhavati. Tadartham eva sutram. Purushaha vyagraha iva purusha vyagraha. Tatrapi tatheva vyagra padasya vyagra sadrishaha ityarthaha. Purushaha vyagraha purusha vyagraha ityeva समासः. इव इत्यनेन व्याघ्रपदस्य व्याघ्रसदृशे लक्षणा इति ज्ञायते. पुरुषः व्याघ्रः इव पुरुषव्याघ्रः. न सोम इव नृसोमः. नृ इति ऋकारान्तपदं, तस्य प्रथमविभक्तौ न इति भवति. यथा पितृशब्दस्य पिता तथा नृशब्दस्य न. नरः मनुष्यः इत्येव अर्थः. नृसोमः इत्यादीनि उदाहरणानि. व्याघ्रादिगणः अस्ति. व्याघ्र सिंह वृक्ष ऋषभ चन्दन वृक इत्यादीनि बहूनि पदानि सन्ति. व्याघ्रादिः आकृतिगणः इत्यपि विशेषः. इट् इस् एन् आकृतिगण, दट् इस् एन् एक्स्टेण्डेबल् क्लास्. सो यु केन् आड् वर्ड्स् विच् आर् सिमिलर्. दट् इस् वै द सेकेण्ड् उदाहरणे लिखितर् रेर्ली गिव्स् अ सेकेण्ड् एक्साम्पल्. इफ् हि गिव्स् एन् एक्साम्पल् देर् इस् something special. You can see that the word soma is not in the gana. Okay. So vyagraha iti padam gane asti, adaha purusha vyagraha iti udaharanam dattam. Hintu vyagradihi akriti ganaha. It is an extensible gana. That is, other such words can also be included. Ata eva nrisomaha iti dhitiyam udaharanam diyate. Tatra soma iti padam vyagradi gane nasti. Astutaha gana pathe nasti. Hintu तेनापि समासः भवति इति दर्शयितुमेव द्वितीयम् उदाहरणं दत्तम्. सो या नृसिंहः इस् ट्रू. न सिंहः एव नृसिंहः. द वर्ड् सिंह इस् इन् द व्याघ्रादिगण. व्याघ्र सिंह. सो तेन मुखपद्मं मुखकमलं करति सलयं पार्थिवचन्द्रः दृगब्जं. यु हाव् आल् सच् मेनि 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 सच् एक्साम्पल्स्. All those are from the sutra. Kim? Upamitam vyakhyadihi samanya prayoge. Vyakhyadeha akriti ganatvate. Upamanavachakani bahuni padani atra yojyante. So all these are derived from this sutra. Samanya aprayoge. Samaharana dharmasya aprayogaha. Yatra sadharana dharmaha na nirdishyate. Saying purusha vyakhyaha. What is the common feature between Purusha and Vyagra? It is Shaurya or Dhairya or something. But you are not specifying it. That is Jnayate. It is known, but it is not specified in a word. Purusha Vyagraha iti uchyate. Purusha Vyagraha shuraha iti no uchyate. So if you want to specify the Sadharana Dharma, पुरुषः व्याघ्र इव शूरः इति वाक्ये एव प्रयोगः. वेरेवर सामान्यस्य नाम साधारण धर्मस्य यदि प्रयोगः अस्ति तदा समासः न भवति. पुरुषः व्याघ्र इव शूरः इति वाक्यम् एव प्रयोक्तव्यम्. यदा समासः भवति तदा सामान्यस्य प्रयोगः न क्रियते. पुरुषव्याघ्रः इत्येव. किं कः साधारणधर्मः इति अनुमीयते. यू अण्डर्स्टाण्ड्? बट् इट् इस् नाट् स्पेसिफैड्. यदा साधारणधर्मस्य प्रयोगः अस्ति तदा अनेन सूत्रेण समासः न भवति. अत एव मुखपद्मं सुन्दरम् इत्यादि न वक्तव्यम्. मुखपद्मम् इत्युक्ते सौन्दर्यं साधारणधर्मः इति ज्ञायते. तस्य प्रयोगः न भवति. अग्रिमं सूत्रं विशेषणं विशेष्येण बहुलम्. फैनलि वि कम् टु द एक्चुअल् द मेन् उत्सर्गसूत्र फार् कर्मधारय समास. दिस् इस् द मेजर् कैण्ड् आफ् कर्मधारय. विशेषणं विशेष्येण बहुलम् पदानि सन्ति. भेदकम् विशेषणं नाम भेदकम्. दट् विच् सेपरेट्स् संथिङ्ग् समानाधिकरणेन भेद्येन. सो इट् कम्बैन्स् वित् द भेद्य. दट् विच् इट् इस् सेपरेटिङ्ग् आर् क्वालिफैङ्ग् तेन सह बहुलं प्राग्वत्. प्राग्वत् नाम समस्यते सर्वपुरुषः इत्यर्थः. बहुलग्रहणस्य प्रयोजनम् अग्रे वक्ष्यते. नीलम् उत्पलम् नीलोत्पलम्. सो नीलम् इति भेदकम् विशेषणम्, उत्पलम् इति विशेष्यम्. समासे सति नीलोत्पलम्. बहुलग्रहणात् क्वचिन् नित्यम्. वेरेवर् यु हाव् बहुल देर् इस् सम् स्पेशल् थिङ्ग्. बहुल डस् नाट् मीन् आप्शनल्. वा विकल्पः इत्यादि उक्ते समासः न केवलं समासः, किमपि विकल्पः इत्यर्थः. किन्तु बहुलग्रहणस्य विकल्पः इत्यर्थः नास्ति. तस्य कश्चन विशिष्टः अर्थः भवति. अत्र बहुलग्रहणात् क्वचित् नित्यम्. अयं क्वचित् इन् सम् केसस् इट् इस् अ नित्यसमासः. सच कृष्णसर्पः. कृष्णसर्प वस्तुतः कृष्णः इति विशेषणं, सर्पः इति विशेष्यं. कृष्णसर्प रेफर्स् टु ब्लाक् सर्प. बट् द वर्ड् कृष्णसर्प इस् यूस्ड् टु इण्डिकेट् अ पर्टिक्युलर् कैण्ड् आफ् स्नेक्. इट् रेफर्स् टु इस् कोब्रा. ओके, इट् डस् नाट् रेफर् टु एनी स्नेक् विच् इस् ब्लाक्. देर् मैट् बि अदर् स्पीशीस् आफ् स्नेक्स् विच् आर् आल्सो ब्लाक्. किन्तु कृष्णसर्पः इति सर्पविशेषे रूढम्. द वर्ड् even though it is a visheshana samasa, it does not refer to any snake which is black. It refers to a particular kind of a snake which is a cobra. Atayeva ayam nitya samasaha. Krishna sarpaha iti nitya samasaha. Krishnaha sarpaha ityukte saha arthaha na gamyate. When you split it into a vakya, it will not refer to a particular kind of snake. It will just refer to a black snake. Kintu krishna sarpaha iti samasena भिन्नः अर्थः उच्यते. आल्वेस् इफ् यु हेव् द सेम् से कृष्णं श्रुतः इति वाक्यम् अथवा राज्ञः पुत्रः इति वाक्येन, राजपुत्रः इति समासेन च समानः अर्थः गम्यते. वेन् द बोत् आफ् देम् इण्डिकेट् द सेम् मीनिङ्ग् तदैव वाक्यमपि प्रयोक्तुम् अर्हः भवति, समासस्यापि प्रयोगः भवति. यत्र भिन्नार्थता भवति तत्र नित्यसमासः इति उच्यते. अत एव अत्र कृष्णसर्पः इति नित्यसमासः. देर् इस् नो यु शुड् नाट् स्प्लिट् इट् एस् कृष्णः सर्पः. अलौकिकविग्रहवाक्ये कृष्णासु सर्पासु इति उच्यते, किन्तु तत्र विग्रहवाक्यं न भवति. नीलमुत्पलम्. उत्पलं नाम कमलम् इत्येव अर्थः. इट् इस् अ flower which belongs to the same kind. It is not exactly lotus. I think it is lily. Utpala shabdasya. But the flower lily is called Utpala. Kvachit na. Bahula grahanata kvachit nityam iti uktam. Kvachin na. Kvachit samasaha na bhavatyeva. Ramo jamadagnyaha ityasti. रामः, तस्य नाम जामदग्न्यः इति तस्य विशेषणम्. जमदग्नेः अपत्यम्. अत्र विशेषणम् अस्ति विशेष्यम् अस्ति किन्तु समासः न भवति रामजामदग्नः इति वा रामलग्नरामः इति वा समासः न भवति सो बहुलग्रहणात् आल् दिस् इस् बै बहुलग्रहणात् बहुलग्रहण इट्सेल्फ् इस् डिफैन् एस् दट् क्वचित् प्रवृत्तिः क्वचित् अप्रवृत्तिः क्वचित् विभाषा क्वचित् अन्यदेव सो वाट् इस् द यूसेज् वेरेवर् पाणिनि यूसेस् बहुल क्वचित् प्रवृत्तिः इन् सम् केसस् द सूत्र अप्लैस् कम्पल्सरिलि एस् इन् कृष्णसर्प अत समास इस् कम्पल्सरि क्वचित् अप्रवृत्तिः इन् सम् केसस् द सूत्र मैट् नाट् अप्लै एट् आल् एस् इन् रामोजामदग्नः देर् इस् नो समास वै बिकास् द फैनल् आन्सर् इस् शब्दशक्ति स्वभाव नेचुरलि देर् इस् नो समास हापनिङ्ग् देर् इस् नो प्रयोग किन्तु तत् सूचयितुमेव पाणिनिना बहुलम् इति पदस्य उपयोगः क्रियते बहुलग्रहणात् क्वचिन् नित्यं क्वचिन् न We can just look at something about Visheshana and Visheshya. Okay, so, Shabdaha Saturvidhaha. There are four kinds of words. Jativasakaha, Gunavasakaha, Kriyavasakaha, Samyavasakaha. There are only four kinds of words. It will either indicate a class of an object. Say, when you are saying Manushyaha, it is a class. Vrikshaha, Amravrikshaha. Amraha is also a class. It is a class of tree, but it is again a class. Jati is not the it is a jati of tarka. It is not today's manushya, different classes of people. It is just a class of anything as a jati. Okay. So, jati vachakaha shabdaha bhavanti. Guna vachakaha shabdaha. Yasa krishnaha shvetaha ityadayaha. Kubjaha unnataha. Sarvepi guna vachakaha shabdaha. Kriya vachakaha. Yatha pachakaha. Adhyapakaha. पाठकः इत्यादयः सर्वेपि क्रियावाचकः शब्दः संज्ञावाचकः इफ् इट् इस् नन् आफ् दीस् इट् विल् बि अ नेम् रामः कृष्णः इत्यादयः सर्वोऽपि संज्ञावाचकाः कृष्णः इत्यपि गुणवाचक एव वस्तुतः इफ् यु से देर् आर् सम् राण्डम् संज्ञास् यु हाव् से डित्थडवित्थादयः इति उच्यन्ते ते सर्वे संज्ञावाचकाः शब्दाः सो चतुर्विधाः शब्दाः भवन्ति तत्र संज्ञाशब्दाः सर्वदा विशेषणसमर्पकाः स्वभावात् संज्ञा इस् आल्वेस् कन्सिडर्ड् एस् अ विशेषण फार् एक्साम्पल् यु हाव् कैलासपर्वतः अयोध्यानगरी आल् दीस् आर् समासास् बै विशेषणं विशेषेण बहुलम् सो कैलास इस् द नेम् आफ् दट् पर्वत पर्वत इस् अ जाति जातिवाचकशब्दः कैलासः इति संज्ञावाचकशब्दः संज्ञावाचकशब्दः सर्वदा विशेषणं भवति समासे कृते तस्य सर्वदा पूर्वनिपातः कैलासपर्वतः अयोध्यानगरी इत्यादिषु अत एव वेरेवर् यु हेव् अ संज्ञा एण्ड् वाट् एवर् द क्लास् यु हेव् यु हियर् द संज्ञा फस्ट् इट् इस् आल्वेस् ट्रीटेड् एस् अ विशेषण टु वाट् एवर् इट् इस् अ संज्ञा गुणक्रियाशब्दसमभिव्याहारे जातिशब्दः विशेष्यसमर्पकः एण्ड् यु हेव् अ काम्बिनेशन् बिट्वीन् अ गुण एण्ड् अ जाति or a kriya and a jativachaka shabda. The jativachaka shabda is always the visheshya and guna or kriya will be the visheshana. Example, you have neelotpalam, neelam utpalam, utpalam nama pushpam. Pushpa visheshaha, it is a kind of pushpa, so it is a jativachaka and neela is a gunavachaka. Gunavachaka jati shabda yohu paraspara samabhivyaha hai. Gunavachaka shabdaha visheshanam, jativachaka shabdaha visheshyam. So always jati is a vishesha and guna is a visheshana. So ata eva utpala neelam iti na bhavati. If you just take it as I said that time, bhedakam bhedyam ityukte, kadachite neela padam bhedakam bhavitum arhati, kadachite utpala padam eva bhedakam bhavitum arhati. But there is a rule when we say jati vachakam iti padam, tarhi tat vishesha samarpakam eva bhavati. Evam pachaka brahmanaha, pachakaha brahmanaha iti asti. पाचकः इति क्रियावाचकम् ब्राह्मणः इति जातिवाचकम् तयोस्तमभिहारे क्रियावाचकस्य विशेषणत्वम् जातिवाचकस्य विशेष्यत्वम् सो यु आल्वेस् हाव् पाचक ब्राह्मणः अण्ड् नाट् ब्राह्मण पाचकः इट् सौण्ड्स् करेक्ट् इट् कुड् बि करेक्ट् बट् द थिङ्ग् इस् इफ् इट् इस् अ क्रियावाचक इट् हेस् टु कम् फस्ट् बिकास् इट् विल् आल्वेस् बि द विशेषण गुणशब्दयोः परस्पर समभिव्याहारे वाट् इफ् यु हेव् टु वर्ड्स् बोत् आफ् विच् आर् गुणवाचकास् पदद्वयमपि यदि गुणवाचकं भवति तर्हि किं भवति इत्युक्ते गुणशब्दयोः परस्पर समभिव्याहारे विशेषण विशेष भावे कामचारः ईदर ऑफ देम कैन बी ट्रीटेड एज द विशेषण एंड ईदर ऑफ देम कैन बी द विशेष्य खञ्जकुब्जः कुब्जखञ्जः इत्यस्ति खञ्जः नाम पादविहीनः अ लेम पर्सन इज कॉल्ड खञ्ज कुब्ज इज अ ड्वार्फ उभावपि गुणवाचकौ शब्दौ बोथ वर्ड्स आर गुणवाचक इन दिस केस इट इज योर विष्कामचार इज डिपेंडिंग ऑन द विवक्षा यू कैन ईदर ट्रीट खञ्ज एज द विशेषण एंड कुब्ज एज द विशेष्य और कुब्ज एज द विशेषण एंड खञ्ज एज द विशेष्य सो देर आर बोथ वर्ड्स आर करेक्ट खञ्ज कुब्ज हाँ यदि खञ्ज पदस्य विशेषणत्वम् इष्यते तर्हि तस्य पूर्वनिपातः खञ्जकुब्जः इति भवति कुब्जपदस्य यदि विशेषणत्वम् इष्यते तदा कुब्जखञ्जः इति भवति एवमेव क्रियाशब्दयोः परस्परसमभिव्याहारे इफ् देर् आर् टु क्रियावाचकपदस् विच् आर् कम्बैनिङ्ग् पुनः विशेषणविशेष्यभावे कामचारः अत्रापि इदमेव विशेषणम् इदमेव विशेष्यम् इति वक्तुं न शक्यते पाचकपाठकः पाठकपाचकः पाचकः पाठकः हि कुक्स् हि आल्सो टीचर्स् इदानीम् उभावपि क्रियावाचकौ दट् इस् द इण्डिकेटर् पर्सन् बेस्ड् आन् द क्रिया सो पाचकः इत्यस्य विशेषणत्वं यदि इच्छ्यते तदा पाचकपाठकः इति पाठकशब्दस्य यदि विशेषणत्वम् इष्यते तर्हि पाठकपाचकः इति भवति गुणक्रियाशब्दयोः परस्परसमभिव्याहारे इफ् यु हेव् अ काम्बिनेशन् आफ् अ गुण एण्ड् अ क्रिया तदापि विशेषण विशेष्य भावे कामचारः देन् आल्सो यू केनाट् फिक्स् समथिङ्ग् एज़ द विशेषण और् विशेष्य खञ्जपाचकः पाचकखञ्जः खञ्जः पाचकः खञ्ज इस् अ गुणवाचक एण्ड् पाचक इस् अ क्रियावाचक खञ्जपदस्य विशेषणत्वे खञ्जपाचकः इति भवति पाचकपदस्य विशेषणत्वे पाचकखञ्जः इति भवति सामान्य जाति विशेष जाति शब्दयोः समभिव्याहारे वेन यू आर कम्बाइनिंग टू जाति वाचकस यू आर कम्बाइनिंग टू जाति वाचकस व्हाट विल हैपन इज वन इज अ ब्रॉडर क्लास एंड द अदर इज अ स्मॉलर क्लास सो सामान्य जाति विशेष जाति शब्दयोः इट इज नॉट विशेष्य जाति इट इज विशेष जाति सामान्य जाति इज द ब्रॉडर क्लास एंड विशेष जाति इज अ क्लास विद इन दट क्लास तयोः परस्परं समभिव्याहारे वेन यू आर कम्बाइनिंग सच वर्ड्स विशेष जाति ही विशेषणम् द नैरोअर क्लास विल बी द विशेषण उदाहरणमस्ति आम्रवृक्षः आम्रः इत्यपि जातिवाचक शब्दः वृक्षः इत्यपि जातिवाचक शब्दः सो इदानीं परस्पर समभिव्याहारे वृक्ष इज अ क्लास विद इन दट क्लास यू हैव द क्लास ऑफ आम्र सो वृक्षः इति सामान्य जाति आम्रः इति विशेष जाति विशेष जातिवाचकं विशेषवादि जातिवाचक शब्दः विशेषणम् अतः आम्रवृक्षः इत्येव प्रयोगः न तु किं वृक्षाम्रः There is a difference between Amra Vrikshaha and say Kailasa Parvataha, right? So, though it looks the same, Amra is not a Samya, it is a Jati, it refers to a class of Vrikshas. Whereas Kailasa does not refer to a class of Parvatas, it refers to one particular Parvata. So, Kailasa ha Samya Vachakaha, Amra iti Jati Vachakaha. Okay? Samanya Jati Vishesha Jati Shaptayo Samabhi Vyahare, Vishesha Jati hi Visheshanam. Okay. Any questions? Oh no no, this is not Vartika, this is just explanations. I took it from Bala Manorama, the commentary, just to make some things clear and it is worth knowing something. So Vartikam Kyapinasi, it is just a statement of the Vyakhyakara explanation. It is not there in the Siddhanta Kaumudi. Anything which is not in red will not be in the Siddhanta Kaumudi. I have marked whatever is the Siddhanta Kaumudi Vakya, it will be in red. So these are taken from the Vakya and would be my own words. Whatever is in black is not Kaumudi. It will be my own words or taken from the commentary and put together. These are not Vartika Lepa. Okay. Any questions? अग्रे समानाधिकरण समासः अगेन कंटिन्यूज सो देयर आर सम सूत्रस बिफोर विशेषणं विशेषेण बहुलं एंड देयर आर सम सूत्रस आफ्टरवर्ड्स टिल द एंड ऑफ दिस पाद इट कंटिन्यूज विद द सेम समास पूर्वापर प्रथम चरम गधन्य समान मध्य मध्यम वीराश्च फलद्वयमस्ति पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर सो देयर आर सेवरल वर्ड्स पूर्व निपात नियमार्थम सो दिस इज टू से व्हेनेवर दे कंबाइन विथ एनी वर्ड सो विदाउट वंडरिंग वेदर इट इज विशेषण और विशेषण दे ऑलवेज कम फर्स्ट तदर्थमेव सूत्रम एते एतानि पदानि एक समासे अंतर्भवन्ति तर्हि पूर्वपदमेव भवति इत्यर्थः पूर्व अपर इत्यादयः पूर्ववैयाकरणः पूर्वः वैयाकरणः पूर्ववैयाकरणः अपराध्यापकः देयर इज नथिंग वेरी स्पेशल अबाउट दीस मेनी ऑफ दीस सूत्रस विल रश थ्रू द एग्जांपल इट इज जस्ट दिस वर्ड कंबाइनिंग विथ ए समानाधिकरण पूर्वादयः समानाधिकरणेन समस्यन्ते तत्पुरुषः इत्यर्थः प्रथमानिर्दिष्टत्वात् पूर्वनिपातः भवति इति द्रष्टव्यं तावदेव अपरस्यार्थे पश्चभावो वक्तव्यः इति वार्तिकम् अपरः अर्थः इत्यस्ति अपरशब्दस्य अर्थशब्देन सह समासः भवति अपरस्य अर्थे पश्चभावो वक्तव्यः पश्च इति आदेशः भवति अपरश्च असौ अर्थश्च अपरः अर्थः इति समासः अपर इत्यस्य पश्चभावः नाम पश्च इति आदेशः भवति पश्चार्थः इति रूपम् अपरस्य अर्थे पश्चभावो वक्तव्यः इति वार्तिकेन सिद्ध्यति कथम् एकवीरः इति देयर इज अ वर्ड कॉल्ड एकवीरः ओके सो कथम् हौ डू वी गेट दिस इति प्रश्नः कः प्रश्नस्य आशयः कः पूर्वकालैक जगत्पुराण नवकेवल समानाधिकरणेन इति सूत्रम् अधीतम् वि हैव ऑलरेडी स्टडीड दैट सूत्र पूर्वकाल एक इति अस्ति तत्र एक शब्दः समस्यते एकनाथः इति उदाहरणं दत्तम् तेन सूत्रेण यदि समासः तर्हि एकशब्दस्य पूर्वनिपातः भवति अस्मिन् सूत्रे पूर्वापर प्रथमचरम गधन्य समान मध्य मध्यम वीराः इत्यस्ति वीरपदम् यदि समस्यते तर्हि वीरः पुरुषः वीरपुरुषः इति पूर्वनिपातः वीरशब्दस्य भवति यदा एतयोरेव समासः एकशब्दस्य वीरशब्देन समासः कस्य पूर्वनिपातः केन सूत्रेण समासः शुड् वि कम्बैन् इट् यूसिङ्ग् पूर्वकालैक सर्वजलत् और् शुड् वि कम्बैन् इट् यूसिङ्ग् पूर्वापर इस् द समास पूर्वकालैक इति बाधित्वा परत्वाद् अनेन समासे सो आल्वेज् वेर् एवर् देर् इस् अ क्लाश् विप्रतिषेधे परं कार्यम् इति उच्यते परत्वात् पूर्वापर प्रथमचरम इत्यनेनैव समासः भवितुमर्हति पूर्वकालैक इति बाधित्वा परत्वाद् अनेन समासे वीरैकः इति स्यात् सो इट् शुड् हेव् बीन् वीरैकः अण्ड् नाट् एकवीरः कथम् एकवीरः इति प्रयोगः इति प्रश्नः बहुलग्रहणात् भविष्यति इति उत्तरम् बहुलं विशेषणं विशेषेण बहुलम् इत्यतः बहुलम् इति अनुवर्तते अत्रापि अनुवृत्तिः अस्ति सो बिकास् आफ् द अनुवृत्ति इन् केस् आफ् वीरा एण्ड् एक दिस् समास विल् नाट् अप्लै पूर्वापर विल् नाट् अप्लै द काम्बिनेशन् इस् बै द सूत्र पूर्वकालैक तत्र एक इत्यस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः एकवीरः इति रूपम् अग्रिमं सूत्रमस्ति श्रेण्यादयः कृतादिभिः तद्वयमस्ति श्रेण्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते सतत्पुरुषः पूर्वकालैक इस् नाट् द लेटर् सूत्र इट् इस् द अर्लियर् सूत्र दट् वास् द फस्ट् सूत्र विच् वि स्टडीड् इन् समानाधिकरण प्रकरण पूर्वकालैक सर्वजगत्पुराण नव केवल समानाधिकरणेन इति प्रथमं सूत्रं सो इट् कम्स् अर्लियर् सो एक्चुलि पूर्वापर शुड् हेव् अप्लैड् इफ् यु टेक् विप्रतिषेधे परं कार्यं बट् सिन्स् बहुलग्रहण वि हेव् बहुलग्रहण इन् दिस् पर्टिक्युलर् केस् एकः वीरः इत्यर्थ अस्य सूत्रस्य प्रवृत्तिः न भवति पूर्वापर इत्यस्य प्रवृत्तिः न भवति पूर्वसूत्रेणैव समासः Shrenyadayaha Kratadipi. Shrenyadi is a class of words starting with Shreni. Kratadi is also a class starting with Krata, etc. So Shrenyadayaha Kratadipi Samasyante Satat Purushaha. Shrenyadishu Chvyatthavachanam Kartavyam. Chvyatthaha ityasti Chvi iti Pratyaha. Abhuta Tadbhave Chvihi iti Upchate. Udaharanartham. Ashuklaha, Shuklaha, Krataha, Shukli Krataha, Shukli Karoti, Iti Prayogaha. Shukli Karoti, Itiyasya Kaha Arthaha, that which was not white earlier, it is made to be white. Abhuta Tadbhave, that which was not like that, it is made to be like that. Ashuklaha, Shuklaha, Krataha, Shukli Krataha. So, Amalaha, Malaha, Krataha, Mali Krataha. So, there were flowers which are independent, they are threaded into a garland. It was not a garland earlier, it is made into a garland. Ityarthe malikaroti iti prayogaha. So saha chvyarthaha iti vichyate. Chvi is a suffix which indicates that abhuta tadbhava. So tasmin arthe shrenyadishu chvyarthavachanam kartavyam. Arthata chvyarthe ayam samasaha iti vichyate. Ateva ashrenayaha shrenayaha krutaha shrenikrataha. It is a matha. Ashrenayaha, there were not shrenis earlier. They were made to be a shreni. Jathe shreni shabdasya krita shabdena sahasa matha. Shreni kataha iti rupam. Kahartha. Shilpena panyena va jivinam samuhaha shrenihi. Shreni refers to people who survive, who live by shilpa. By some art or panya. Panya is by selling. So they live. Their profession is either an art or merchandise, that is selling something. Shilpena panyena va jivinam samuhaha shrenihi. Purvam shilpena panyena va jivitum asamarthaha. Earlier they were unable to live either by their art or by selling. That is, they did not have the required skill for an art or the required capital for a panya, etc. Idanim tena jivitum shamarthaha krutaha. By some training or by some aid, they are able to live by shilpa or panya. Ityarthe samasaha. Shreni krutaha ityasya sahartha. It could refer to say some, a vocational course which enables people to live. It produces some skill in them. So, tasmin arthe ashrenayaha shrenayaha krutaha shreni krutaha iti samasaha. Upyamam sutram, ktena nai vishishtena anai. Ktena namak tapratyantena. Ktena nai vishishtena anai. Kathaha nai vishishtena ktantena anai ktantam samasyate. Ktantam tapratyantam nai vishishtaha kashtanasti anai kashtanasti. Udaharanam pashyamaha. Krutam cha tad akrutam cha. Krita iti ktapratyantam. So, akrita is also ekta pratyayanta. It is with nai. Nai vishishtam kantam nama akritam. Nai vishishtena kantena. Akrita iti padena. Anai kantam. Nai rahitam kantam. Tadeva kantam. The same kanta. There is the first word will not have nai and the second word will have nai. Nai vishishtena kantena. Anai kantam samasyate. Kritam cha tad akritam cha krita akritam. That which is half done, it started but is not completed. Krutam, akrutam. So, krutakrutam, iti samasaha. Evam eva. Annyesham api ktantanam bhavati. So, ektapratyayanta combines with the same word with nai. Aktena, nai vishishtena, anai. Excuse me. Kridancha tadakrutancha krutakrutam. Sudaharanam. Tataha, vartikamekamasti. Shakapārthivādīnām siddhaye uttarapadalopasya upasankhyānam. Pūrvatra ktena nai viśiṣṭena anai. Anai iti prathamāntam ata eva tasya pūrvanipātah. Pūrvanipātah eva krita hasti anai. Krutam is the anai word. That which does not have nai is krutam. And akritam is the nai vishishta kdanta. विशिष्टेन नै विशिष्टेन अनै. सो बिकॉज ऑफ दैट कृता गेट्स पूर्व निमान. So the next article is concerned with a samasa which we call it as madhyama pada lopi samasa, right? So tadartham ekam vartikam asti shatapathyavadinam siddhaye uttara pada lopasya upasankhyanam. So for derivation of words like shatapathyava, you have uttara pada lopa, a samasa where there is an uttara pada lopa. Shakapriyaha parthivaha shakapathyavaha कथमत्र आदौ शाकः प्रियः यस्य सः अथवा शाकाः प्रियाः यस्य सः इत्यर्थे शाकप्रियः इति बहुव्रीहि समासः. सो शाकप्रिय इति बहुव्रीहि, ततः शाकप्रियश्चासौ पार्थिवश्च इति बहुव्रीहि गर्भः विशेषण समासः. विशेषणं विशेषेण मुहुरम् इत्यनेन समासः क्रियते. सो फर्स्ट देर इज अ बहुव्रीहि एंड देन देर इज अ कर्मधारय. सो इट शुड हैव बीन शाकप्रिय पार्थिव. ओके, सो शाकप्रिय पार्थिव इति स्थिते उत्तर पद लोप. पूर्व यहाँ समास आसी अर्थ बहुव्रीहि, पूर्वखंडे बहुव्रीहौ उत्तर पद से प्रिय शब्द से लोप. सो द उत्तर पद ऑफ द अर्लियर समास गेट्स डिलीटेड. सो प्रिया गेट्स डिलीटेड, यू हैव शाक पार्थिव. सो दिस इज एक्चुअली उत्तर पद लोप ऑफ द प्रीवियस समास, बट यदा दृश्यते शाक प्रिय पार्थिव इति विग्रह वाक्यम अस्ति तत्र मध्ये यत् पदम अस्ति प्रिय पदम तद् लुप्यते इत्यतः अस्माभिः मध्यम पद लोपी समासः इति व्यवहारः अस्ति. वी रेफर टू इट एज मध्यम पद लोपी समास, बट द एक्चुअल लोप इज फॉर द उत्तर पद ऑफ द प्रीवियस समास. देयर इज नो मध्यम पद बिकॉज इनिशियली व्हेन यू आर डूइंग बहुव्रीहि देयर आर टू वर्ड्स, देयर इज शाक एंड देयर इज प्रिया. अगेन व्हेन यू आर डूइंग कर्मधारय देयर आर टू वर्ड्स, शाक प्रिया एंड पार्थिव. देयर इज नो मध्यम पद हियर टेक्निकली स्पीकिंग. किन्तु विग्रह वाक्ये मध्ये पदम अस्ति तस्य लोपः अत्र समासे दृश्यते इत्यतः मध्यमपदलोपी समासः इति व्यवहारः. वस्तुतः प्रथमसमासस्य उत्तरपदस्यैव लोपः. इत्येव वार्तिके उत्तरपदलोपस्य उपसंख्यानम् इत्येव उच्यते. शाकप्रियः पार्थिवः शाकपार्थिवः. सो इट् इस् मध्यमपदलोपी समासः इस् जस्ट् अ व्यवहार, नाट् टेक्निकलि करेक्ट्. एवं देवब्राह्मणः इत्यस्ति. So it can be split in two ways. You can either say Deva Priyaha Brahmanaha, Deva Brahmanaha, ityapi vaktum shakyate. Deva Pujataha Brahmanaha, Deva Brahmanaha, ityapi vaktum shakyate. So depending on the answer. So Deva Brahmanaha, atrapi madhyama padasya, thava uttara padasya. Deva naam Pujataha iti samasaha, tatra uttara padam Pujata iti tasya lopaha drishyate. Atha eva Deva Brahmanaha ityapi anena vartikena siddhyati. अग्रिमं सूत्रं सन्महत् परमोत्तमोत्कृष्टाः पूज्यमानैः. सत् पदानि सन्ति सत् महत् परम उत्तम उत्कृष्ट. सो दीस् आर् फैव् वर्ड्स् पूज्यमानैः पूज्यमानैः. दीस् आर् वर्ड्स् विच् इण्डिकेट् प्रशंसा और् गौरव, रेस्पेक्ट् और् वर्शिप् फुल् आफ् संथिङ्ग्. सो दट् विच् इस् बीङ्ग् praised, that with that word these will combine. Okay. So purva nipata niyamartham, again these words should always be the purva pada. Tadartham eva idam sutram. San vaidyah sadvaidyah kahartah chikitsa shastra kulankasha jnanatvam sattvam. Atra sattvam san ityanena chikitsa shastra nama saha vaidyah taha chikitsa shastrasya kulankasha jnanatvam, deep knowledge or thorough knowledge of the systems of medicine. Ityarthe san ityasya prayogaha tena vaidyasya puja gamyate. So sadvaidyaha ityanena saha vaidyaha uttamaha vaidyaha iti ujyate. Ata eva pujyamanena saha san iti padam samasyate sadvaidyaha. Sad iti pratipadikam prathama ekavachane san iti bhavati. Mahan vayyakaranaha mahavayyakaranaha. So mahat iti padam, actually the pura padam is pratiparika of the word mahan is mahat. So it should have been mahadvayakarana. Kintu vakshyamanena mahataha asaraha. Agre sutram asti an mahatasamanadhikarana iti. An akaraha आदेशः उच्यते महत्शब्दस्य, सो दट इज वै यू हियर दट आ हियर, अदरवाइज इट शुड हैव बीन महत् समथिंग, किन्तु वक्ष्यमाणेन महतः आकारः महावैयाकरणः इत्यादीनि, उत्तमवैयाकरणः उत्कृष्टवैयाकरणः इत्यादि द्वयः इत्यादीनि उदाहरणानि स्वयं ज्ञेयानि. पूज्यमानैः किम्? सो वै दस् पाणिनि से पूज्यमानैः, इज देर अ केस वेर दीस वर्ड्स डू नॉट इंडिकेट पूजा, इत्युक्ते उत्कृष्टो गौः इति उदाहरणं दीयते. अत्र उत्कृष्टः इत्यस्य कः अर्थः? पंकात् उद्धृतः, उपरि आकृष्टः, कृष्ट इज टू ड्रैग, उत्कृष्ट इज टू ड्रैग अप, सो देयर इज अ कौ विच इज फॉलन इन से अ मार्श और स्वैम. उत्कृष्टः पंकात् उद्धृतः इत्यर्थे यदा प्रयोगः, उत्कृष्टः गौः इति प्रयोगः, अत्र समासः न भवति. Because it is not pujyamana. Here there is no respect or there is no prashamsa of the cow being indicated. When you are saying it is a very good cow, tada utkrishtaha gauhu iti tasmin arthe yadi prayogaha tada samasaha bhavati. Kintu pankad udhrutaha upari akrishtaha iti arthe yadi utkrishta shabdasya prayogaha tada samasaha na bhavati. Utkrishtaha gauhu iti vyastasyeva prayogaha. यदि विशेषणं विशेष्येण बहुलम् इत्यनेनैव समासः क्रियते तर्हि अनयोः पूर्वनिपातः एव भवति वा इति प्रश्नः. दट् शुड् बी थाट् आफ् महान्, डस् इट् आल्वेस् हेव् टु बी अ विशेषण, इस् अ क्वश्चन्. यदि वैयाकरण महान्तः बहवः सन्ति, वैयाकरणशब्दस्य भेदकर्तुं, बिकास् महान् इस् नाट् अ गुणवाचक, ओके, और् अ क्रियावाचक. यत्र गुणवाचकं वा क्रियावाचकं वा भवति तत्रैव इदं विशेषणमेव भवति इति निश्चयेन वक्तुं शक्यते, ओके. सो इन् दीस् वर्ड्स् दे आर् नाट् गुणवाचक अ क्रियावाचक, सो यु केनाट् डिसैड् दट् इट् इस् आल्वेस् द विशेषण. इफ् यु इण्टेण्ड् जस्ट् लैक् वि सा एस् सम् केसस् देर् केन् बि बोत् फार्म्स्, okay, there are cases where you can either have mahan as the purvapada or as the uttarapada, so there would have been two forms if you are combining it using visheshanam visheshena bahulam. Ateva anena niyamyate mahat shabdah eva purvapadam, sarvada mahat shabdasya eva purvanipatah iti anena uchyate. Any other questions? Maharajaha ityatrapi anenaiva. Mahan Raja. Maharajaha. So the Samasa Vidhayaka Sutra is the same. It is all vivaksha, there is no case, as I said, I mean, wherever it is specified, it is it, but if you have it as a vivaksha, say, vayakaranaha purushaha, vayakarana purushaha, you could do it, where you indicate vayakarana as the visheshana, it could be done, right? So, there is no special case where, that is why he has not covered it, but it is possible. Visheshanam visheshanam bhulam ityanena samasaha bhavitum arhati. Any other questions? Okay, so I'll stop here. Okay, is there a question? कर्मधारये कर्मधारयः तत्पुरुषस्य अन्तर्विभागः. सो इट इज अ सबसेट ऑफ तत्पुरुष. तत्पुरुषे सर्वदा उत्तरपदस्य प्राधान्यम् अतः अत्रापि उत्तरपद प्राधान्यम् इत्येव स्वीक्रियते कर्मधारये अपि. पुरुषव्याघ्रः प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः. That is why you have the praya pada there. It is not always. Okay. किन्तु तत्रापि वस्तुतः भेदः न भवति. व्याघ्रः इत्यत्रापि व्याघ्रपदेन किं स्वीक्रियते? व्याघ्रसदृशः इति स्वीक्रियते. व्याघ्र डस् नाट् मीन् अ टैगर् एक्चुअलि. इट् डस् नाट् रेफर् टु अ टैगर्. इट् रेफर्स् टु समबडि हू इस् सिमिलर् टु अ टैगर्. सो कर्मधारये तथा भेदः न भवति इत्युक्ते व्याघ्रः इत्यनेन व्याघ्रसदृशः यः दृश्यते तथैव पुरुषः. सो बोत् आफ् देम् आर् इण्डिकेटिङ्ग् द सेम् पदार्थ. सो इन् कर्मधारय इट् डस् नाट् मेक् दट् मच् आफ् अ डिफरेन्स्. Okay, because always in Karmadharaya, both words will indicate the same padartha. So whether whichever pada gets the pradhanyam, the artha is the same. Kasya padasya artha idanim rajyaha putraha ityukte raja padarthaha bhinnaha putra padarthaha bhinnaha. Kasya artasya pradhanyam ityukte putra padarthasya pradhanyam iti vadamaha. Kintu purusha padarthasya pradhanyam va bhavatu vyakha sadrusha padarthasya pradhanyam va padartham. पदार्थ समानः. इट् इस् द सेम् पदार्थ विच् इस् बीङ्ग् रेफर्ड् टु इन् अ कर्मधारे. सो विच् वर्ड् इस् प्रधान डस् नाट् म्याटर् इन् अ कर्मधारय. किन्तु टेक्निकलि तत्पुरुषः इत्यतः उत्तरपदार्थप्राधान्यम् इति उच्यते. बट् सिन्स् द पदार्थ इस् द सेम्, ऐ मीन् वेदर् यु आर् सेयिङ्ग् पुरुषपदार्थ इस् प्रधान आर् से व्याघ्रपदार्थ, सिन्स् द पदार्थ इस् द सेम् इट् मेक्स् नो डिफरेन्स्. परिणामालङ्कारः सत्यं दुर्गब्जः लृग् वट् इस् द सत्यम्. ओके दुर्गब्जम्. सो गुड् क्वश्चन्. There are actually two, I don't know how the other one, we call it as an avadharana purvapada karmadharaya and there is a upamanottarapada karmadharaya. Okay, I mean, I'm speaking about the general knowledge. I have to see how we do it by a sutra. When you are saying vidya evadhanam, vidyadhanam, ityukte avadharana purvapada आसमासः इति उच्यते. तस्य तत्र सूत्रं किम् इति मया द्रष्टव्यम्. बट् यु आर् देर् इस् अन् अवधारण एण्ड् देर् इस् एन् उपमान. ओके, सो वेन् यु आर् डूयिङ्ग् से द अवधारणपूर्वपद दृगेव अब्जम्, यु आर् सेयिङ्ग् दट् द ऐ इट् सेल्फ् इस् अ लोटस्, तदा तु अब्जम् इत्यस्य प्राधान्यं भवितुम् अर्हति. बट् ऐ हेव् टु लुक् एट् इट्. ऐ शुड् ऐ मीन् ऐ डोण्ट् वाण्ट् टु आन्सर् इट् बिकास् इट् इस् अ काम्बिनेशन् आफ् टु शास्त्रास्. ऐ वाण्ट् टु सी वाट् द अलङ्कारशास्त्र सेस्. ऐ I studied a Parinamalankara, but I did not look at it from this angle. So I'll just think about it and let you know in the next class or probably next week. Rikabjam Ikshate. Any other questions?
येनाक्षर तमाम नायम अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। अस्तिकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।